दुर्वासासुरवनितात्त दिव्यमाल्यम् शक्राय स्वयमुपदाय तत्र भूयः नागेन्द्र प्रतिमृदिते शशाप शक्रौ काशान्तिस्त्वदितर देवताम् सजानाम् शापेन प्रथित जरेत दिर्जरेन्द्रे देवेष्वप्यसुरजितेषु निष्प्रभेषु शर्वाद्यः कमल जमेत्य सर्वदेव निर्वाण प्रभव समम् भवन्तमापुः ब्रह्माद्यै स्तुत महिमा चिरम् तदानीम् प्रादुष्यन् वरद पुरः परेण धाम्न हे देवादिति च कुलै विदाय सन्ध्यु पीयूषम् परिमततेति पर्यशास्त्रौ सन्धानौ कृतवति दानवै सुरौगे मन्थानम् नयति मदेन मन्दराद्रिम् भ्रष्टेऽस्मिन् बदनमिवोद्वहन् खगेन्द्रे सद्यस्त्वम् विनिहितवात् पयः पयोधौ आदाय द्रुतमत वासु किम् वरत्राम् पातोधौ विनिहित सर्वबीजजाले प्रारब्धे मतनविदौ सुरासुरैस्तैः व्याजात्मम् भुजगमुखे करो सुरारीम् शुद्धाद्रौ क्षुभिज जलोदरे तदानीम् दुग्धाब्धौ गुरुतर भारतो निमग्ने देवेषु व्यथित तमेषु तत्प्रियैषि प्राणेषिः कमकतनु कठोर पृष्टा वज्राति स्थिरतर कर्परेण विष्णो विस्तारात् परिगत लक्षयोजनेन अम्भोदेः कुहन गतेन वश्मनात्मौ निर्मग्नौ क्षितिदरनाथ मुङ्गिनेत उन्मग्ने झटिति तदा दराधरेन्द्रे निर्मेतु दृढमिह सम्मदेन सर्वे आविश्य द्वितय गणेऽपि सर्पराजे वैवश्यम् परिशमयन् अभिवृदस्तान् उद्दाम भ्रमण जवोन्नमद्गिरीन्द्रन्यस्तैकस्थिरतर हस्त पङ्कजम् त्वाम् अभ्रान्ते विधिगिरिशादय प्रमोदात् उद्भ्रान्त गुरुपात पुष्पवर्षः दैत्यौगे भुजगमुखानिलेन तप्ते तेनैव त्रिदश कुलेऽपि किञ्चिदार्ते कारुण्या तव किल देव वारिवाहाः प्रावर्षन्नमर गणान्न दैत्य सङ्गान् उद्राम्यद्बहुतिमिन क्लचक्रवाले तत्राब्धौ चिरमतितेऽपि निर्विकारे एकत्वम् करयुग कृष्ट सर्पराजः सम्राजन् पवन पुरेश पाहि रोगा।